रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दहालः। राष्ट्रपतिः रामचन्द्र पौडेलः भासते शासकीय दुर्बलता अतपरम् राजनीतिक निष्ठया लोकतन्त्रस्य पवित्रतया च जेतव्या। संविधान दिवसस्य राष्ट्रिय दिवसस्य च उपलक्ष्ये शीतल निवासस्थिते राष्ट्रपति कार्यालये ह्यः आयोजिते कार्यक्रमे राष्ट्रपतिः पौडेलः अवोचत् राजनीतिक व्यवस्थायां परिवर्तितायां सत्यामपि सामान्य जनतायाः अवस्थायाम् अधुनापि परिवर्तनस्य अवशिष्टत्वात् एतस्य पूरणाय सर्वेषां निष्ठावान प्रयासः आवश्यको वर्तते। राष्ट्रपति पौडेलः प्रावोचत् त्रयाणां स्तराणां सर्वकाराणां निर्माणं महती उपलब्धिरस्ति। एतेषाम् आधारशिलायां नेपालस्य समृद्धेः यात्रायां नयनम् आवश्यकं वर्तते। पौडेलः संघीय लोकतान्त्रिक गणतन्त्रस्य कुतोऽपि दुर्बलीकरणं प्रति सचेष्टता धर्तव्येति बलं ददत् अवदत्। यूनां कृते देशस्य अभ्यन्तरे एव वृत्त्यवसरान् सृष्ट्वा युवजनशक्तेः विदेश पलायनं निरुध्य च एते देश निर्माणाय योजनीयाः। समारोहे नेपाल प्रहरिणः कलाकारैः देशस्य सप्तानामेव प्रदेशानां सांस्कृतिक नृत्येन सह सांस्कृतिक कार्यक्रमाः प्रस्तुताः आसन्। संविधान दिवसस्यैव अवसरे टुडीखेलस्थिते सैनिक मञ्चे आयोजिते विशेष समारोहे कार्यवाहक प्रधानमन्त्री रक्षामन्त्री च पूर्णबहादुर खड्का संविधानस्य आधारस्तम्भानां क्रमशः सबलीकरणेन सह भाविनी कार्यसूची सुशासनं समृद्धि सामाजिक न्यायश्च अस्तित्व समस्पष्टयत। कार्यवाहक प्रधानमन्त्री खड्का संविधानं प्रति सर्वेषां यथार्थ सम्मानेन समर्पणेन च सह समर्पणेन च देश समृद्ध लोकतन्त्रस्य नवीनोच्चतायां प्रापयते इति विश्वासम् अभिव्यनक। कार्यवाहक प्रधानमन्त्री खड्का संविधानस्य क्रियान्वयनेन सुन्दरस्य समृद्धस्य च राष्ट्रस्य निर्माण पुरस्सरं जनतां विपन्नतायाः अशिक्षायाः पश्चवर्तितायाश्च उन्मोच्य समतामूलक समाजस्य सर्जनं संयुक्त दायित्वम् अस्तीति अकथयत। कार्यवाहक प्रधानमन्त्री खड्का संविधानस्य मर्म भावनयोः अनुसारेण राज्येन प्रदातव्यां सेवां सरलां सुलभां च विधातुं सर्वकारः प्रयत्नशीलोऽस्तीति समस्पष्टयत। कार्यवाहक प्रधानमन्त्री खड्का स्वास्थ्य पूर्वाधारं सेवाश्च विस्तार्य सुदृढीकृत्य च महामारीं नियन्तुं विपदं व्यवस्थापयितुं न्यूनीकर्तुं सर्वकारेण यथासम्भवं प्रयासो विहित इति ब्रुवन्। डेंगूरोगस्य प्रसरणस्य निवारणाय एतस्मात् सम्भाव्यायाः क्षतेः न्यूनीकरणाय च आवश्यकपूर्वकार्यं विधीयमानम् अस्तीति अज्ञापयत। कार्यवाहक प्रधानमन्त्री खड्का संविधान दिवसस्य अवसरे कमपि आग्रहं पूर्वाग्रहं च न धृत्वा देशजनतयोः बृहत्तरहितं सर्वोपरि मत्वा विकास समुन्नतयोः क्रियाशीलाः भवितुम् सर्वान् अन्वरुणात। विशेष समारोहे नेपाली सेनाया हेलिकप्टर यानेन एतद् वैक्रमाद्यः संविधान दिवसः इत्युल्लिखिता वस्त्रपट्टिका प्रदर्शिता पुष्पवृष्टिश्च विहिते आस्ताम्। संविधान दिवसस्य अवसरे काष्ठमण्डप ललितपुर महानगरपालिकाभ्याम् भक्तपुर नगरपालिकया च सांस्कृतिक प्रदर्शनी दर्शिता आसीत्। तदवसरे सूचना प्रसारण विभागेन प्रकाशितः नेपाल द्वैमासिकस्य संविधान दिवस विशेषाङ्कः विमोचितः आसीत्। संविधान दिवसस्यैव अवसरे नेकपा एमाले दलेन काष्ठमण्डपस्य नारायण चौरस्थाने आयोजिते कार्यक्रमे नेकपा एमाले दलस्य अध्यक्ष केपी शर्मा ओली अब्रवीत् संविधानं प्रभावकारितया क्रियान्वीय देशे शान्ति सुरक्षा सामाजिक न्याय समानता राष्ट्रिय एकता च संस्थापनीया। अध्यक्ष ओली देशस्य उन्नत्यै जनतायाः एकतायै च विभाजनकारिणी जनतायाः विखण्डनकारिणी राष्ट्रियकतायां विशृङ्खलनकारिणी च कस्यापि राजनीतिक मतभेदस्य दृष्ट्या विहिताः तथाविधाः क्रियाकलापाश्च राष्ट्रियकतायाः पक्षे न सन्तीति चर्चयन् एकता न दुर्बलीकर्तव्येति विचारम् अभिव्यनक। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्ड कथयति आर्थिक क्षेत्रस्य विकासेनैव प्रजातन्त्रस्य स्थायित्वं सम्भवति। असौ नागरिकाणाम् जीवनस्तरस्य उन्नयनाय बुभुक्षा विरोधिने अभियानाय प्रजातन्त्रस्य सबल विकासाय च वृत्तिहीनताया न्यूनीकरणम् अपरिहार्यमस्तीति अवोचत। संयुक्त राष्ट्रसंघस्य अष्टासप्ततितम्यां महासभायां भागं ग्रहीतुं न्यूयॉर्कस्थाने विद्यमानः प्रचण्डः अमेरिका देशीय विदेश मन्त्रिणा एन्थानी ब्लिंकेन इत्यनेन अमेरिका देशीय सहयोग नियोगस्य प्रमुख प्रशासकेन सामन्था पावर इत्यनेन च आयोजितं डेमोक्रेसी डेलिभर्स नामकं प्रजातन्त्रस्य प्राप्ति विषयकं सम्मेलनं सम्बोधयन् अवोचत। नेपालस्य इतिहासः नागरिकाणां संघर्षस्य योगदानस्य च आधारेण निर्मितोऽस्ति। एतादृशः संघर्ष स्वतन्त्रतायै न्यायिकाधिकाराय समानतायै सशक्तिकरणाय च विहितः आसीत्। संसदि पञ्जीकारिते शिक्षा विधेयके असन्तुष्टिं ज्ञापयन्त्या नेपाल शिक्षक महासंघस्य राष्ट्रिय समित्या विरोधस्य कार्यक्रमाः प्रारब्धाः सन्ति। आराष्टं शिक्षकान् काष्ठमण्डपम् आहूय समित्या ह्यस्तन दिवसात् काष्ठमण्डप केन्द्रितम् आन्दोलनं प्रारब्धमस्ति। शिक्षा विज्ञान प्रविधि मन्त्रिणा अशोक कुमार राई इत्यनेन परह्यः मंगलवासरे आहुतां वार्ताम् अस्वीकृत्य मन्त्रितः स्वस्य याचनाः सम्बोधयितुं न शक्यन्ते इति ज्ञापयन्ति। यता महासंघेन आन्दोलनं प्रारब्धं वर्तते। महासंघेन विधेयकस्य विरुद्धे विभिन्नाः अष्टादश सूत्रीयाः असहमतिः उपस्थाप्य प्रारब्धे आन्दोलने ह्य काष्ठमण्डपस्य मैत्रीघरस्थाने एकीभूताः शिक्षकाः विभिन्न समाघोषैः प्रदर्शनेन च सह नयावानेश्वरस्थानं प्राप्ताः आसन्। अत्रान्तरे काष्ठमण्डप महानगरपालिकया विद्यालयस्य पिदापकाः शिक्षकाः दण्ड्यन्ते इति प्रत्यादिष्टमस्ति। काष्ठमण्डप महानगरेण विद्यालयान् पिधाप्य पठन पाठने अवरोधिते सति प्रचलित विधेय अनुसारेण शिक्षकाः दण्ड्यन्ते इति महानगरस्य शिक्षाधिकारी सीताराम कोइराला अज्ञापयत। शिक्षाधिकारिणा कोइराला विधेन यः प्रकाशितायम् विज्ञप्तौ शिक्षकाणाम् वृत्तेः विकासस्य याचनानाम् उपस्थापनाय पूरणाय च अन्येषु बहुषु विधिषु प्रक्रियासु च विकल्पेषु सत्सु तान् त्यक्त्वा शान्तिक्षेत्रेषु विद्यालयेषु अशान्तेः सर्जकानि कार्याणि न कर्तुम् प्रचलित विधेः विपरीततया विद्यालयान् न पिधापयितुम् च अनुरुद्धम् वर्तते। काष्ठमण्डप महानगरपालिकायाः अभ्यन्तरे विद्यालयेषु पिधापितेषु प्राप्तेषु सत्सु पिधापनाय बाध्यकृतेषु पठन पाठनं त्यक्त्वा विद्यार्थिनां नियमिताध्ययनस्य अधिकाराणां हनन कृतेषु च सत्सु प्रचलित विधेय अनुसारेण दण्ड्यन्ते। अस्य कृते सम्पूर्णं दायित्वं सम्बद्ध व्यक्त्या एव स्वीकर्तव्यं भवतीति विज्ञप्तौ ज्ञापितं वर्तते। भौतिक पूर्वाधार यातायात मन्त्रालयस्य नेपाल यातायात व्यवसाय राष्ट्रिय महासंघस्य च सहकार्येण ह्य काष्ठमण्डपस्य रत्न पार्क स्थानात् भक्तपुरस्य सूर्य विनायक स्थानम् यावत् द्रुत बसयान सेवा सञ्चालिता वर्तते। भौतिक पूर्वाधार यातायात मन्त्री प्रकाश ज्वाला ह्य रत्न पार्क स्थानस्य शान्तिवाटिकातः बसयान सेवाम् इमाम् शुभारभत। बसयानस्य कृते मार्गस्य पंक्तिः पृथक् कृता वर्तते। अद्यतः कार्यालय समये प्रातः 9 वादनात् 11 वादनं यावत् अपराह्नस्य 4 वादनात् 6 वादनं यावच्च द्रुतसेवायाः बसयानानि सञ्चाल्यमानानि सन्ति। काष्ठमण्डप उपत्यकायाः यातायात क्षेत्रे सुधारानयनस्य उद्देश्येन द्रुत बसयान सेवेयं सञ्चालितेति सर्वकारेण ज्ञापितं वर्तते। रत्न पार्क स्थानात् सूर्य विनायक स्थानं यावत् मार्गस्य दूरी 10.4 किलोमीटर मिता अस्ति। निर्धारित समयस्य कृते 40 स्थान क्षमतायाः 25 बसयानानि पृथक् कृतानि सन्तीति यातायात व्यवस्था विभागस्य महानिर्देशक उद्धव रिजालः ज्ञापयत। कार्यालय समये सम्प्रति सार्वजनिक यातायात साधनैः यात्रायै सूर्य विनायकाद् रत्न पार्क स्थानम् यावत् आसन्न घण्टाद्वयावधेः समयः अपेक्षते। दशाधिक शततम्याः बीपी जयन्त्याः अवसरे गत भाद्रमासस्य 26 दिवसाय निर्धारितः बीपी साहित्य महोत्सवस्य स्थगितकृतः कार्यक्रमः ह्यः सम्पन्नः। गत भाद्रस्य 24, 25, 26 दिवसेषु आयोजयितुं निर्धारितः बीपी साहित्य महोत्सवस्य 3रे दिवसस्य कार्यक्रमः संविधान सभायाः अध्यक्षस्य नेकपा एमाले दलस्य उपाध्यक्षस्य च सुभाष चन्द्र नेवांग इत्यस्य निधनस्य कारणात् स्थगितकृतः आसीत्। इति समाचारः।